करिष्यामि सिद्धिर्भवतु मे सदा स्थामि संस्कृतं नित्यं संस्कृतं सदा ध्यायामि संस्कृतं सम्यक् वन्दे संस्कृतमातरं प्रसाराय नैजं सर्वं गतं पुण्यहं संस्कृतस्य सदा भक्तो वन्दे संस्कृतमातरं संस्कृतस्य कृते जीवन् संस्कृतस्य कृते यजन् आत्मानमाहुतं मन्ये संस्कृतमातरं वन्दे संस्कृतमातरम् नमस्ते. वयं दृष्टवन्तः हनुमान् इन्द्रशैलतः उदस्थात् उत्थितः ततः अग्रे प्लवमानः समुद्रस्योपरि गतः. तस्य पृष्ठतः गिरेः वृक्षाः अनुसृत्य समुद्रजले पतिताः. तेषां वृक्षाः आगामिनः सेतोः सङ्केतम् अयच्छन् क्रमशः विन्यस्ताः ते वृक्षाः. वयं दृष्टवन्तः, एतदपि दृष्टवन्तः यत् मैनाकपर्वतः समुद्रस्य अन्तः विद्यमानः, समुद्रजलस्य उपरि आगतः, अनुज्ञां पालयन् स्वयं च पवनपुत्रस्य आञ्जनेयस्य सेवां कर्तुकामः सः उपरि आगतः. यदा सः उपरि आगतः तं विघ्नं मन्यमानः, मैनाकं विघ्नं मन्यमानः आञ्जनेयः तस्य ताडनं कर्तुं वेगेन गन्तुम् इष्टवान्. किन्तु तं प्रार्थयते. किमुक्त्वा प्रार्थयते? अत्र किञ्चित् विश्रान्तिं स्वीकुरु, विश्रम्य गच्छ इति अवदत्. अनन्तरं समुद्रराजः भवतः कृतज्ञः अस्ति, श्रीराम रघुकुलस्य कृतज्ञः अस्ति, अहं समुद्रस्य कृतज्ञोऽस्मि, अहमपि भवतः पिता पित्रा पवन वायुदेवेन परित्रातः संरक्षितः. अत्र सपक्षः अत्र अहं सुरक्षितोऽस्मि इत्यादिकं वदन् सः सेवितुं सत्कारं कर्तुम् इष्टवान्. तस्य सत्कारं मनसा वचसा च अङ्गीकृतवान्. भवतः आशयम् अहम् अङ्गीकरोमि, अवगच्छामि, किन्तु विश्रान्तिं स्वीकर्तुम् इदानीं नार्हामि, कार्यत्वरा अस्ति, मया शीघ्रमेव गन्तव्यम्, अतः अन्यथा मा चिन्तय, अन्यथा मा भावय इति वदन् आञ्जनेयः स्नेहवचसा तं सान्त्वयन् अग्रे प्लुतवान् इत्यादिकमपि दृष्टवन्तः. इदानीं किं वदति आञ्जनेयः तं साक्षात्? अनन्तरम् इन्द्रः अपि देवाः अपि एतत् सर्वं पश्यन्ति. रामकार्यं खलु, रावणस्य संहारः अपि सर्वैः पूर्वं ज्ञातपूर्व देवैः तु, अतः देवाः अपि पश्यन्तः सन्ति. एतद् दृश्यं पश्यति, उपरि आगच्छन्तं मैनाकपर्वतं पश्यन् इन्द्रः किं चिन्तयति इति अस्मिन् श्लोके, अद्यतन श्लोके द्रक्ष्यामः. अहं पठामि, कृपया अनुवदन्तु. हिरण्यनाभमब्धौ वलमानं वलमानमाथिवज्रः मन्युरपेतमन्युरासीत् अवमानात्मजसेवनादमुष्मिन्
अवमानात्मजसेवनादमुष्मिन्
अवलोक्य दृष्ट्वा इति अर्कः दृष्टवान् इत्युक्ते इन्द्रः पदच्छेदं द्रक्ष्यामः अवलोक्य अब्धौ वलमानं बलमानमाथिवज्रः अपेतमन्युः आसीत् पवमानात्मजसेवनात् अन्वयं पश्यामः आसीत् इति क्रियापदम् कः आसीत् शतमन्युः शतमन्युः नाम इन्द्रः शतं यागान् यः अनुतिष्ठते तस्मिन् कुप्यति तस्य विफलीकर्तुं प्रयतते इति वयं शृणुमः तथा अथवा शते दैत्येषु मन्युं करोति क्रुध्यति इति शतमन्युः इति अपि तस्य नाम शतमन्युः बलनामकः कश्चन असुरः बलमानमाथिवज्रः इति अत्र बलमान इति बलनामकस्य असुरस्य सः नाशितवान् दर्पं गर्वं नाशितवान् अतः बलमानमाथि वज्रायुधं यस्य सः इन्द्रः इन्द्रस्य विशेषणम् पुनः कीदृशः शतमन्युः विगतकोपः यस्य कोपः न आसीत् क्रोधः न आसीत् क्रुद्धः एव सः पूर्वं पर्वतानां पक्षान् छिन्नवान् इति वयं शृणुमः किन्तु इदानीं मैनाकं दृष्ट्वा एषः कथं पक्ष तिष्ठति अहं तु पूर्वं सर्वेषां पर्वतानां पक्षाणां छेदनं कृतवान् खलु इति तं दृष्ट्वा कुपितः न अभवत् कस्मिन् अपेतमन्युः अमुष्मिन् मैनाके किं कृत्वा अपेतमन्युः आसीत् अवलोक्य दृष्ट्वा कम् अवलोक्य हिरण्यनाभं मैनाकम् कुत्र अवलोक्य अब्धौ कीदृशं हिरण्यनाभं वलमानं वलते इत्युक्ते सञ्चरति वल् सञ्चरणे वलमानम् एवं सञ्चरन्तं समुद्रस्य जलस्य उपरि तस्य शिखरम् एवं सञ्चरन्तं एतद् सञ्चरत् शिखरं वयं द्रष्टुं शक्नुमः उपरितः अतः वलमानम् कस्मात् हेतोः अपेतमन्युः आसीत् इन्द्रः पवमानात्मजसेवनात् अत्र देवकार्यं प्रचलति अतः पवनपुत्रस्य सेवां कर्तुम् उपस्थितः एषः पर्वतः तस्मै अहं न कुप्यामि न क्रुध्यामि इति इन्द्रः निश्चितवान् अन्वयः भवति अब्धौ बलमानं हिरण्यनाभम् अवलोक्य माथिवज्रः शतमन्युः पवमानात्मजसेवनात् अमुष्मिन् अपेतमन्युः आसीत् कस्यापि संशयः अस्ति वा अन्वयार्थं पश्यामः अब्धौ समुद्रे आपः ध्रियन्ते अस्मिन् इति अब्धिः वलमानं सञ्चरन्तं मैनाकपर्वतम् अवलोक्य वीक्ष्य दृष्ट्वा बलमानमाथिवज्रः धनुजस्य गर्वमन्थकः वज्रधरः इन्द्रः गर्वं मन्थति इत्युक्ते नाशयति इति अर्थः। शतमन्युः इन्द्रः पवमानात्मजसेवनात्, पवमानः वायुः, पवनात् पवमानात्मजः वायुपुत्रः, रामकार्ये तत्परत्वात्। अयं रामकार्ये तत्परः अस्ति, तस्य सेवनाय सत्काराय उपस्थितः अस्ति एषः पर्वतः इति कृत्वा अमुष्मिन् मैनाके अपेतमन्युः अपगतकोपः आसीत् इन्द्रः इति। अत्र सुन्दरशब्दप्रयोगः कृतः, बलमानं बलमानमाथिवज्रः, बलमानं शानच् प्रत्ययान्तं पदम्, वस्तुतः बलासुरः इति अपि वक्तुं शक्यते, शक्यमस्ति, किन्तु अत्र बलमानमाथि असुरस्य मानभङ्गं कृतवान्, गर्वनाशं कृतवान् इति बलमानमाथिवज्रः इति सुन्दरशब्दप्रयोगः। पुनः अपि शतमन्युः अपेतमन्युः, शतमन्युः इति पदम् इन्द्रस्य पर्यायपदम्, अपेतमन्युः इति विशेषणम्। अस्य भावार्थः एवमस्ति, पूर्वं पर्वतानां पक्षच्छेदकः इन्द्रः मैनाकं दृष्ट्वा अपि तस्मै न क्रुध्यत्, क्रोधं न करोत्। समुद्रस्य अन्तः यस्य वासः सोऽयं पर्वतः रामकार्यार्थिनः हनूमतः आतिथ्याय उद्गम्य सञ्चरन् अस्ति इति ज्ञात्वा इन्द्रः तस्मिन् वज्रप्रहारं नाकरोत् इति भावः। पुनरपि एकवारं श्लोकं पश्यामः। अवलोक्य हिरण्यनाभमब्धौ बलमानमाथिवज्रः, शतमन्युरपेतमन्युरासीत् मजसेवनादमुष्मिन्। अत्र गद्यभागाः रक्तवर्णेन सूचिताः, पद्यभागः च नीलवर्णेन, भेदं दर्शयितुमेव। एकं गद्यभागं पश्यामः, अहं पठामि, कृपया पठन्तु। तदनु यथा पुरं लङ्कापुरं धावतो हनूमतः सरणिं,
धावतो हनूमतः सरणिं,
अरुणत्
अरुणत्
अरुणसारथेः पदवीं विन्ध्य इव,
अरुणसारथेः पदवीं विन्ध्य इव,
पदाय
पदं व्याधाय
द्विरसजननी रंहसा सुरसा,
द्विरसजननी रंहसा सुरसा
सुरसा।
अत्र स्थानत्रये एव सन्धिः अस्ति, अतः यत्र सन्धिः अस्ति तत्र एव पदच्छेदः दर्शितः, अन्यत्तु अस्माभिः तत्रैव पठितुं शक्यम् इति। तदनु यथा पुरं लङ्कापुरं प्रति प्रधावतः सरणिम् अरुणत् अरुणसारथेः पदवीं विन्ध्यः इव व्यादाय द्विरसजननी रंहसा सुरसा। अत्र किम् उच्यते, पूर्ववत् वेगेन अग्रे प्रस्थितः आञ्जनेयः मैनाकं, मैनाकस्य सत्कारं निराकृत्य अग्रे सृतः। तदा तदनन्तरं यथा पुरं पूर्ववत् इति अर्थः, यथा पुरं प्रति लङ्कानगरीं प्रति प्रधावतः हनूमतः वेगेन गच्छतः आञ्जनेयस्य सरणिं मार्गं द्विरसनजननी ता द्वैरसने कस्य भवति सर्पस्य अतः येषां द्वे जिह्वे स्तः ते द्विरसनाः द्विरसनानां जननीका सर्पमाता अत्र सुरसा रंहसा रंहसा इत्युक्ते वेगेन रंहः इति शब्दः रंहस् वदनं व्यादाय मुखं विवृत्य मुखमुद्घाट्य थेः पदवीं विन्ध्यः इव अरुणत् एकः सूर्यः अरुणसारथेः सूर्यस्य पदवीं मार्गं यथा पूर्वं विन्ध्यः अवरुद्धवान् तथा सुरसा आञ्जनेयस्य मार्गं मार्गे विघ्नभूता अभवत् कथं स्थिता सा वदनं व्यादाय मुखं विवृत्य अरुणसारथेः पदवीं विन्ध्यः इव अरुणत् इति अस्य सर्वे कथां जानीयुः एव भावार्थम् उक्त्वा अहं तदपि किञ्चित् संक्षेपेण वदामि पूर्ववत् लङ्कानगरीं प्रति वेगेन गच्छतः मारुतेः मार्गं मुखं विवृत्य सुरसा तथा अवरुद्धवती तं मार्गं यथा सूर्यस्य मार्गं विन्ध्यः पूर्वम् अवरुद्धवान् आसीत् वयं सर्वे श्रुतवन्तः स्याम पूर्वं मेरुपर्वतं प्रति परितः क्रमते सूर्यः इति तदवलोक्य विन्ध्यपर्वतस्य ईर्ष्या जाता मेरो सदृशम् अहमपि सदृशः उन्नतः भवामि चेत् मां परितः सूर्यः परिभ्रमेत् खलु सः स्पर्धाम् अकरोत् मेरुपर्वतेन स्पर्धमानः सः क्रमेण वर्धते स्म तस्य क्रमेण वर्धमानः सः सूर्यस्य मार्गमेव अवरुद्धवान् अरुणसारथिः अरुणः सारथिः यस्य अरुणसारथिः सूर्यः तस्य मार्गमेव अरुणत् अवरुद्धवान् तदा देवाः सर्वे भीताः गत्वा अगस्त्यमुनिं प्रार्थितवन्तः कारणम् अगस्त्यमुनिः मुनेः शिष्यः विन्ध्यपर्वतः अगस्त्यमुनिं प्रार्थितवन्तः अगस्त्यमुनिः विन्ध्यम् उक्तवान् भोः किञ्चित् अवनतो भव किञ्चित् अधः शिखरम् अधः करोतु येन अहं दक्षिणदिशां प्रति गन्तुं शक्नुयाम् इति तदा विन्ध्यः तथैव अवनतः अभवत् विन्ध्यः अवनतः अभवत् तदा अगस्त्यमुनिः तस्य अन्यपारं तीर्त्वा दक्षिणदिशां प्रति प्राप्तवान् किन्तु एतदपि उक्तवान् यत् ऋषिः यत् यावत्पर्यन्तम् अहं न प्रत्यागच्छामि तावत्पर्यन्तं तथैव तिष्ठ वर्धनं मास्तु उन्नतः मा भवतु इति तद् तस्य वचनं पालयन् अद्यावधि विन्ध्यः अवनतः एव अस्ति अगस्त्यमुनिः अपि दक्षिणतः न प्रत्यागतवान् इति कथा तदत्र स्मार्यते कविना अत्र अरुणसारथिः इति पदस्य कथं विग्रहवाक्यं भवति अरुणः सारथिः यस्य सः बहुव्रीहिः पार्थसारथिः इत्यत्र तु पार्थस्य सारथिः श्रीकृष्णः अतः अर्थम् अनुसृत्य एव पदच्छेदः भवति विग्रहवाक्यं भवति समासे द्विरसन जननी जानीमः सर्पा सर्पमाता द्वे रसने येषां ते द्विरसनाः द्विरसनानां जननी अग्रिमं श्लोकं पठामः उज्जृम्भितस्य तरसा सुरसां विजेतुम्
उज्जृम्भितस्य तरसा सुरसां विजेतुम्
पादौ पयोधिकलितौ पवमानसूनोः तस्योत्तमाङ्गम् अभवद्गगनस्रवन्ति स्खलितसीकरमालभारि वाक्ये एवं पठनीयं तस्योत्तमाङ्गमभवत् गगनस्रवन्ति वीचीचयस्खलितसीकरमालभारि एकपदं गगनादारभ्य भारिपर्यन्तं समस्तं पदम् अतः तद् तत्र विच्छेदः न भवेत् मम एव दोषः आसीत् अस्तु पदच्छेदं पश्यामः अत्र कवेः सुन्दर वर्णनम् उत्प्रेक्षणं च कथम् इत्युक्ते मुखं व्यावृत्त स्थितवती व्यावृत्य स्थितवती सुरसा इति वयं दृष्टवन्तः व्याधाय सुरसा यदा स्थिता तदा तां विजेतुं हनुमान् अपि आत्मनः शरीरस्य वर्धितवान् इतोपि विशालः विशालकायः अभूत् तस्य पादौ आकाशे स्थितः दयमानः किन्तु पादौ कुत्र स्तः पयोधौ समुद्रे स्तः मुखम् आकाशे गगने अस्ति तस्य उत्तमाङ्गम् औन्नत्ये अत्यन्तम् औन्नत्ये अस्ति इति कारणेन तस्य उत्तमाङ्गं शिरः कुत्र अस्ति अत्यन्तम् औन्नत्ये आकाशे अस्ति कथं शोभते गङ्गायाः विकीर्णाः जलबिन्दवः माला इव तस्य उपरि शोभते इति वर्णनं पद एकैकं पदमपि पश्यामः सामान्य अर्थः इदानीम् उक्तः पदच्छेदः उज्जृम्भितस्य तरसा विजेतुं पादौ पयोधिकलितौ पवमानसूनोः तस्य उत्तमाङ्गम् अभवत् गगनस्रवन्ती वीचीचयस्खलितसीकरमालभारि आकांक्षा द्विवचनमपि अस्ति अभवत् इति एकवचनमपि अस्ति आदौ द्विवचनं पादौ पयोधिकलितौ अभूताम् इति अध्याहृतं क्रियापदं श्लोके नास्ति किन्तु अध्याह्रियते अभूतां कौ कौ अभवतां पादौ कीदृशौ पादौ पयोधिकलितौ समुद्रे स्थितौ कस्य पादौ पवमानसूनोः पवनपुत्रस्य सूनुः पुत्रः कीदृशस्य पवमानसूनोः तस्य उज्जृम्भणं वर्धनं कायस्य देहस्य वर्धनम् उज्जृम्भितस्य विवृद्धस्य तस्य तरसा वेगेन किं कर्तुं विजेतुं सुरसां विजेतुं यदि रामायणे वाल्मीकिरामायणे पठिष्यन्ति तद् विवरणं बहु समीचीनतया तत्र वर्ण्यते रसकरं भवति अतः अवश्यं पठन्तु इति प्रार्थये तरसा वेगेन किं कर्तुं विजेतुं सुरसाम् इदानीम् एकं वाक्यं अत्र समाप्तम्। द्वितीय पंक्तौ अस्ति किल तद् तत्र अन्वयं पश्यामः। अत्र खण्डान्वयः वाक्यद्वयमस्ति अभवत्। किम् अभवत्? उत्तमाङ्गम्। पादौ तु समुद्रे स्तः किन्तु तावान् उन्नतः सः इदानीम् उत्तमाङ्गम् इत्युक्ते शिरः। कस्य उत्तमाङ्गम्? तस्य हनुमतः उत्तमाङ्गम् कीदृशम् अभवत्? गगनस्रवन्ती वीचीचय स्खलित सीकर मालभारी अभवत्। इत्युक्ते गंगा गगनस्रवन्ती का गंगा अपि तस्याः गतिः भूमौ अपि गतिः गतिः इति कारणेन त्रिपदगा इति गंगायाः अपरं नाम वयं जानीमः। गगनस्रवन्ती आकाशे वहन्ति गंगा तस्याः वीचीनां चयः तस्याः तरंगाणां समूहः तरंगाणां समूहात् पतन्ति। के पतन्ति? सीकराः। सीकराः नाम जलबिन्दवः। सीकराः शीकराः इति उच्यते। सीकराणां जलबिन्दूनां माला इव स्रक् इव माला इव धरति आञ्जनेयः इति अत्र गङ्गातरङ्गेभ्यः पतितानां जलबिन्दूनां मालाभृत् अभवत् हनुमतः शिरः। शिरोभागे तद् गङ्गाजलबिन्दूनां माला इव तत् शोभते इति अस्य वर्णनम्। अत्र एकं तादृशवर्णनम् अपरत्र का तदहं किञ्चित् श्रावयामि। देहलीशस्तुतिः इति स्वामिवेदान्तदेशिकस्य स्तोत्रमस्ति। एकं वर्णनमस्ति यत् वामन अवतारात् परं त्रिविक्रम अवतारं स्वीकरोति भगवान्। तदा बहु वेगेन वर्धते तथा सः एकं पादम् एव आकाशं स्वर्गलोकं स्पृष्टवान्। तद् कथम् अभवत् इत्युक्ते नखा ये आकाशे आसन् प्रथमवारं यदा वर्धितवान् भगवान् तदा नक्षत्रगणाः तस्य किरीटायते स्म। नक्षत्रगणः तस्य किरीटः भवति, किरीटवत् आचरति, मुकुटवत्। पुनः वर्धनं प्राप्नोत् तदा किम् अभवत्? सः एव नक्षत्रगणः तस्य मेखला भवति। तृतीयवारं यदा पादक्रमणं कृतवान् तदा किम् अभवत्? स एव नक्षत्रगणः भगवतः नूपुरमणयः अभवन् इति बहु सुन्दरतया समान तत्सदृशवर्णनम् अपि अत्र शक्नुमः इति कारणेन तद् किञ्चित् अत्र श्रावितम्। पुनः एकवारम् एतस्य सरलमर्थं पश्यामः भावार्थम्। वेगेन सर्पमातरम् अत्येतुं जेतुं जयः कीदृशः इत्युक्ते तस्याः ताडनं वा तस्याः मारणं न करोति, चातुर्येण तां पराजयितुं यत्नं करोति, उद्यमं करोति। अतः अत्र जेतुम् इति अत्येतुम् इति लिखितमस्ति। सर्पमातरं सुरसाम् अत्येतुं जेतुं प्रवृद्धगात्रस्य चरणौ पादौ समुद्रतलितौ समुद्रसंस्थितौ अभवताम्। शिरः उत्तमाङ्गम् गङ्गातरङ्गेभ्यः पतितानां जलबिन्दूनां मालाभृत् अभवत् इव दृश्यते। अर्थः स्पष्टः जातः इति भावयामि। एकवारं श्लोकं पश्यामः। उज्जृम्भितस्य तरसा सुरसां विजेतुं पादौ पयोधिकलितौ पवमानसूनोः तमांगम अभवत् गगनस्रवन्ति वीचीचय स्खलित सीकर मालभारी। अग्रे अत्र इतोपि एक व्याकरण विशेषः अस्ति, तद् अत्र वदामि। माला इत्येव खलु, माला भारी, भारी इत्युक्ते बिभ्रति, धरति, धारयति इति अर्थः। मालभारी किमर्थं, मालाभारी इति किमर्थं नास्ति? अत्र एकं सूत्रमस्ति, इष्टकेशीकतूलानां चिततूलभारिषु इति। इशीका माला इति पदत्रयम्। इष्टका इत्युक्ते इष्टिका इति जानीमः किल, ब्रिक्। इशीका, इशीका इत्युक्ते तृणविशेषः, एकप्रकारकं तृणम्, इशीका। अनन्तरं माला इति पदत्रयं पूर्वपदे अस्ति इति चिन्तयतु, समस्तपदे। अनन्तरम् उत्तरपदे चितं भारि इति पदत्रयं क्रमशः भवति चेत् पूर्वतनपदस्य इष्टक, इष्टका, इशीका, माला इत्यस्य अन्ते विद्यमान आकारस्य ह्रस्वं भवति। इष्टका, इशीका, माला इति एतेभ्यः परं क्रमशः चिततूलभारिन् शब्देषु सत्सु एते ह्रस्वान्ताः भवन्ति इति नियमः। मालभारी, मालाभारी इति न। भारी इति नपुंसकलिङ्गान्तं किमर्थम् इत्युक्ते उत्तमाङ्गम् इति पदस्य विशेषणम्। अत्र विवरणं दत्तमस्ति टिप्पण्यां, पुनः विस्तरेण द्रष्टुं शक्नुमः। अग्रिमं श्लोकं पश्यामः। तनुं तनूकृत्य तदा हनुमान्, कृत्वा प्रवेशं जठरे तदीये, ततो विनिष्क्रम्य स चक्रपाणे, त्रिविक्रमस्य क्रममेव चक्रे, वाल्मीकिरामायणे सुन्दरकाण्डे एतत् पश्यन्ति चेत्, पठन्ति चेत् बहु आनन्दः भवति। शतं योजनं विस्तीर्णं सुरसामुखम् आञ्जनेयस्य, पुनः तस्याः मुखम् इतोपि विवृतम् इति परस्परं भवति द्वयोः। अन्ततो गत्वा आञ्जनेयः किं करोति, चातुर्येण अत्यन्तम् उन्नतः विशालकायः भवति, व्यावृत्य तिष्ठति सुरसा स्वमुखं, तदा झटिति ह्रस्वी भूय लघु भूत्वा तस्याः मुखं जठरं प्रविश्य ततः वेगेन निर्गच्छति इति वयं तत्र पठामः। अत्र तदेव संक्षेपेण उक्तं। पदच्छेदः तनु हनुमान् कृत्वा प्रवेशं जठरे तदीये, ततः विनिष्क्रम्य चक्रपाणेः त्रिविक्रमस्य क्रमम् एव चक्रे। पदं कृतवान्, चकार चक्रे, कः चक्रे, हनुमान्, किं चक्रे, क्रमम् एव चक्रे। क्रमः इत्युक्ते अत्र प्रकारः इति अर्थः। कस्य क्रमं चक्रे, पूर्वं केनापि अनेन प्रकारेण किमपि कृतं, कृतवान् कः, कृतवान् चक्रपाणिः, चक्रपाणेः क्रमं चक्रपाणि। हरि ओम्, किं भगिनी? चक्रपाणेः क्रमं तम् अनुसृतवान्। कीदृशस्य चक्रपाणेः त्रिविक्रमस्य, किं कृत्वा? तनूकृत्य, कृशः भूत्वा, लघु भूत्वा, सूक्ष्मः भूत्वा। तनु इत्युक्ते भवति कृशः, लघु। तनुः इति शरीरं। तनुं तनु कृत्वा, कां तनुं तनु कृत्वा, पुनः किं कृत्वा? प्रवेशं कृत्वा। कुत्र प्रवेशं कृत्वा? जठरे। कृशे जठरे, तदीये सुरसायाः जठरे। पुनः किं कृत्वा? विनिष्क्रम्य, निर्गत्य। कुतः? ततः तस्याः जठरात् इति अन्वयः भवति। तदा हनुमान् तनुं तनु कृत्य तदीये जठरे प्रवेशं कृत्वा ततः विनिष्क्रम्य चक्रपाणेः त्रिविक्रमस्य क्रममेव चक्रे। प्रतिपदार्थं पश्यामः। तदा, तदा इति चेत् कदा? अतिमात्रेण प्रवृद्धं हनुमन्तं निगलितुं सुरसा स्वमुखम् इतोपि स्थिता। तदा हनुमान् आञ्जनेयः तनुं तनु कृत्य स्वशरीरं सूक्ष्मं विधाय, सूक्ष्मं कृत्वा, तदीये जठरे सुरसायाः उदरे प्रवेशं कृत्वा प्रविश्य ततः तदनन्तरं तात् विनिष्क्रम्य निर्गत्य चक्रपाणेः, चक्रं पाणौ यस्य विष्णोः, वामनावतारात् परं भगवता स्वीकृतस्य त्रिविक्रमावतारस्य क्रमम् एव, प्रकारम् एव चक्रे अकरोत्। वामनावतारं बलिनिग्रहणाय वामनावतारं स्वीकृतवान् भगवान्। पुनः तस्य त्रिभिः पदैः मातुं, भूमि मातुं सः पदत्रयं स्थापितवान्। तदर्थं त्रिविक्रम अवतारः। तद् यदा तद् कार्यं तदा पूर्ववत् स्वरूपं प्राप्तवान्, स्वीकृतवान् किल, तथा पूर्ववत् रूपम् इति अर्थः। आञ्जनेयः अपि तस्य वर्धनस्य च सङ्कोचस्य किञ्चन प्रयोजनं किम् इत्युक्ते सुरसां विजेतुं। यदा तद् कार्यं समाप्तं तदा पूर्ववत् स्वरूपं प्राप्य सः अग्रे गतवान्। भावार्थः, अतिमात्रेण प्रवृद्धवपुषं हनुमन्तं निगलितुं मुखम् इतोपि यदा व्यादाय स्थिता तदा हनुमान् सूक्ष्मवपुः, सूक्ष्मशरीरः भूत्वा सुरसायाः जठरं प्रविश्य निर्गत्य पूर्वतनं रूपं प्राप्नोत्। यथा बलिनिग्रहावसरे वामनः विष्णुः त्रीन् क्रमान् विधातुं महाकायः अभवत्, ततः परं निजरूपं च प्राप्नोत्, तथा कामरूपी हनुमान् विवृध्य संकुच्य च अतिविशालरूपं पुनः सूक्ष्मरूपं च स्वीकृत्य यदा कार्यं सिद्धं सुरसा जिता अभवत् तदा प्राग्रूपमेव प्राप्तवान् इति भावः। त्रिविक्रमस्य क्रममेव चक्रे इत्यत्र निदर्शना अलङ्कारः, निदर्शनम् अत्र दत्तम्। श्लोकं पठित्वा अग्रे गच्छामः। उज्जृम्भितस्य तरसा सुरसां विजेतुं पादौ पयोधिकलितौ पवमानसूनोः तस्योत्तमाङ्गमभवद्गगनस्रवन्ती वीचीचयस्खलितसीकरमालभारी। ओ, एतदग्रिमं किल, तनुं तनु कृत्य, क्षम्यताम्। तनुं तनूकृत्य तदा हनुमान् कृत्वा प्रवेशं जठरे तदीये ततो विनिष्क्रम्य स चक्रपाणे स्त्रिविक्रमस्य क्रममेव चक्रे। इदानीम् इतोपि एकः श्लोकः, ततः परं गद्यभागः। भूयोऽपि सोऽयं रघुनाथ दूतः
निसिंहरं
हाः पथि सिंहिकाङ्गम् छायानिरोधादुपबन्नमन्युः पुनः अपि सः अग्रे गतवान्। पूर्वं मैनाकपर्वतं स्नेहवचसा सान्त्वयन् किन्तु तस्याः प्रार्थनां न अङ्गीकृतवान्, परिहृत्य अग्रे गतवान्। सां चातुर्येण विजित्य अग्रे गतवान्। किम् अभवत्? पुनः अपि कश्चन विघ्नः। कीदृशः विघ्नः इत्युक्ते छायाग्राही सिंहिका। छायां सा गृह्णाति चेत् यस्य छाया अस्ति सः अपि आकृष्टः भवति, तादृशी शक्ति तस्याः अस्ति सिंहिकायाः। छायाग्राहिणी सा किम् अकरोत् इति अत्र पश्यामः। अपि सः अयं रघुनाथदूतः चिच्छेद गच्छन् नखरैः खराग्रैः नृसिंहरम्भाः पथि सिंहिकाङ्गं छायानिरोधात् भू आकाङ्क्षा चिच्छेद छेदनम् अकरोत्। किं चिच्छेद? सिंहिकाङ्गं, सिंहिकायाः शरीरमेव चिच्छेद। कः अयं? हनुमान्। कीदृशः अयं सः? सः यः पूर्वं सुरसां निर्जित्य ततोपि पूर्वम् अपि स्नेहवचसा सान्त्वयन् यः अग्रे आगतवान् सः। पुनः कीदृशः अयं? रघुनाथदूतः, रामकार्यं कर्तुं प्रस्थितः, अतः कुत्रापि विश्रान्तिः मा भवतु इति धिया गच्छन्नस्ति रघुनाथदूतः सः। अयम् उपपन्नमन्युः, इदानीं सम्प्रति क्रुद्धः, कुपितः। यस्य कोपस्य कारणं किम्? कस्मात् हेतोः सः उपपन्नमन्युः? धात् तस्य छायायाः ग्रहणं भवति। किं कुर्वन् चिच्छेद? गच्छन् सः चिच्छेद, छिन्नवान्। कदा गच्छन्? भूयः अपि सुरसायाः जठरात् निर्गत्य गच्छन्। कुत्र सः सुरस एतां सिंहिकां चिच्छेद? पथि, मार्गे। कीदृशः सन् चिच्छेद? नृसिंहरम्भाः, नृसिंह इव वेगवान् भूत्वा। कैः चिच्छेद? तस्य समीपे आयुधं किमपि नास्ति खलु। नखरैः, नखैः। कीदृशैः नखरैः? खराग्रैः, तीक्ष्णैः नखरैः कां छिन्नवान्, नाशितवान्। अन्वयः, सः अयं रघुनाथदूतः भूयः अपि गच्छन् पथि छायानिरोधात् उपपन्नमन्युः हाः सिंहिकाङ्गं खराग्रैः नखरैः चिच्छेद। अन्वयार्थं, प्रतिपदार्थं पश्यामः। सः अयं मैनाकं सन्तोष्य सुरसां च जित्वा अग्रे प्लुतः सः अयं हनुमान् रामदूतः भूयः अपि पुनरपि गच्छन् प्लवमानः पथि, आकाशमार्गे इति कारणेन प्लवमानः छाया निरोधात् स्वच्छाया ग्रहणात् उपपन्नमन्युः जातरोषः नृसिंहरंहाः। रंहः इत्युक्ते वेगः, रंहस् नृसिंहः नृसिंहस्य वेगः इव यस्य वेगः सः नृसिंहरंहाः, नरसिंहदेवः इव वेगवान् सन्। सिंहिकायाः शरीरम् खराग्रैः नखरैः तीक्ष्णाग्रैः नखरैः, येषां नखानाम् अग्रभागाः सुतीक्ष्णाः सन्ति तादृशैः नखैः चिच्छेद व्यदारयत्। सम्यक् विदीर्णवान्। मैनाकस्य सत्कारं मनसा वचसा च सम्मान्य, किन्तु तत्र विश्रान्तिं निराकुर्वन् सुरसां चातुर्येण जित्वा पुनरपि वेगेन लङ्कायाः दिशि कृतः रामदूतः हनुमान्। मार्गे किम् अभवत्? मार्गे पुनः छायानिरोधरूपः उत्पन्नः। कः अयं माम् आकर्षति, मम आकर्षणं करोति, कोऽपि न दृश्यते खलु इति परितः दृष्टिं प्रसारितवान् आञ्जनेयः। यदा उपरि अधः वामतः दक्षिणतः सर्वत्र दृष्टवान्, विकट शरीराम् एतां सिंहिकां दृष्टवान्। क्रुद्धः सः यथा तीक्ष्णनखास्त्रैः नरसिंहदेवः हिरण्यकशिपुं विदीर्णवान्, तथा एव छायाग्राहिण्याः सिंहिकायाः शरीरं छिन्नवान् इति। अत्र उपमा अलङ्कारः नृसिंहरंहाः सिंहिकाङ्गं खराग्रैः नखरैः चिच्छेद इत्यत्र उपमा अलङ्कारः। अर्थः अवगतः इति मन्ये। श्लोकं पश्यामः। भूयोऽपि सोऽयं रघुनाथदूतः गच्छन्नखरैः खराग्रैः नृसिंहरंहाः पथि सिंहिकाङ्गम् छाया निरोधादुपपन्नमन्युः। अग्रे गद्यभागः अस्ति, पठामि, कृपया अनुवदन्तु। तदनु पारावरस्य पारे लम्बशिखरिणी लम्बमानः प्रतनुतर वपुः लङ्कापुरोत्तरगोपुरद्वारमासाद्य चिन्तातन्तु सन्तानितान्तः करणोऽभूत्। नितान्त चिन्तातन्तु सन्तानितान्तः करणः अभूत्। समस्तपदं पदच्छेदः। तदनु पारावरस्य पारे, समुद्रस्य पारे, लम्बशिखरिणी, लम्बपर्वतः इति अपि ज्ञायते, महेन्द्रपर्वतः तः प्रस्थितः समुद्रस्य भारतवर्षे। समुद्रं तीर्त्वा यदा गतवान् तदा कस्मिन् पर्वते अवतीर्णवान् इत्युक्ते त्रिकूटपर्वते, तत् तस्य एव नाम अत्र लम्बशिखरिणी। लम्बशिखरिणी लम्बमानः प्रतनुतरवपुः लङ्कापुरोत्तरगोपुरद्वारमासाद्य नितान्तचिन्तातन्तु सन्तानितान्तः करणः अभूत्। अस्तु, सर्वविघ्नान् अपि सम्मुखीकृत्य सः सफलः अभवत् विघ्नानां। पुनः अग्रे गतवान्, समुद्रस्य अन्यतीरमपि प्राप्तवान्। एतावत्पर्यन्तं तस्य मनसि कापि आशंका वा भयं वा लवलेशोऽपि नासीत्। किन्तु लङ्कां प्राप्य सः चिन्ताकुलः अभवत् प्रथमतया। इदं प्राथम्येन सः लङ्कानगरी कथं सुरक्षिता तिष्ठति, कथं वानरसेना समुद्रस्य पारम् आगच्छति, लङ्का सुरक्षितां लङ्कानगरीं प्रविशेत् इत्यादिकं विचिन्त्य सः चिन्ताकुलः जातः इति एव अत्र अग्रे वर्णनं पश्यामः। तदनन्तरं पारावारस्य पारे समुद्रस्य पारे समुद्रस्य पारे लम्बशिखरिणी, शिखरी कः? पर्वतः। शिखरमस्य अस्ति इति शिखरी, लम्ब नाम कः? शिखरी, लम्बपर्वतः। लम्बशिखरिणी लम्बपर्वते लम्बमानः ततः अवरोहणं कुर्वन् वपुः सूक्ष्मरूपं पुनः शरीरं सूक्ष्मं कृतवान्। तनुतर वपुः कृशवपुः कृशकायः जातः, अतीव लघुकायः सञ्जातः। ते शत्रुप्रदेशे अस्ति, कोऽपि तं न पश्येत् इति। लङ्कापुरस्य उत्तरगोपुरद्वारं, लङ्कापुरोत्तरगोपुरद्वारं, लङ्कापुरस्य उत्तरभागस्य उत्तरदिशि विद्यमानगोपुरद्वारम् अस्ति, तत्र आसाद्य प्राप्य अन्तचिन्तातन्तुसन्तानितान्तःकरणः अभूत्। अत्यन्तं चिन्ताग्रस्तः अभवत्, चिन्तानां सरणिः, क्रमशः तस्य मनसि चिन्तालहरी, अतः चिन्तातन्तु निरन्तरम् आगच्छति। एकैकशः सः चिन्ताग्रस्तः भवति, कारणानि विचिन्त्य मनसि। चिन्तातन्तु सन्तानित, तेन सः निता सन्तानित नितान्तानित अन्तःकरणः, अन्तःकरणं चित्तम्। यस्य अन्तःकरणं चिन्ताकुलं तादृशः सः चिन्तास्तन्तु सन्तानित अन्तःकरणः अभवत् आञ्जनेयः इति। अस्य भावार्थः अस्ति, सिंहिकां मारयित्वा समुद्रस्य अन्यतीरे त्रिकूटपर्वते अवतीर्य शत्रुदेशस्य प्रवेशविधानं सः अचिन्तयत्। कथं प्रवेष्टव्यं? दूतः अस्ति, दूतकार्यम् अत्र प्रामुख्यं वहति। कथं दूतेन भवितव्यम् इति अत्र निदर्शनं आञ्जनेयः दर्शयति। सः झटिति, भावाकुलः सन् निर्णयं न स्वीकरोति, सम्यक् वीक्ष्य विचिन्त्य अनन्तरं न करणीयम् इति सः विचिन्त्य करोति। अतः सः सूक्ष्मतरवपुः जातः, सूक्ष्मतरशरीरं धृत्वा गतवान्। ततः सः आत्मनः शरीरं सूक्ष्मतरं कृत्वा तस्य उत्तरगोपुरद्वारं प्राप्य अत्यन्तं चिन्ताकुलः सञ्जातः, चिन्ताग्रस्तः अभवत्। हेतुः कारणम् अग्रे अग्रिमगद्यभागे वक्ष्यते। चिन्ता इति दीर्घसमस्तपदमस्ति किल, चिन्तातन्तु सन्तानितान्तःकरणः, तस्य कथं भवति अर्थः इत्युक्ते अत्यन्तं नितरां। चिन्तातन्तु इत्युक्ते चिन्तायाः तन्तुः, सूत्रम्। सन्तानितम् अन्तःकरणम्, अन्तःकरणं तेन तस्य मनः चिन्तया व्याप्तम् इति अर्थः। चिन्ता एव तस्य मनसि व्याप्य तिष्ठति, अन्यत् किमपि नास्ति इदानीम्। सः नितान्तं चिन्तातन्तुना सन्तानितान्तःकरणं यस्य सः नितान्तचिन्तातन्तु सन्तानितान्तःकरणः अभूत् इति सामान्यार्थः. अत्र वयम् अद्य विरमामः. अग्रिमवर्गे तस्य चिन्तायाः कारणानि उच्यन्ते, तद् वयम् अग्रिमगुरुवासरे द्रक्ष्यामः. इदानीम् एतावदेव. शुभरात्रिः. शान्तिमन्त्रेण समापयामः. सर्वे भवन्तु सुखिनः,
सुखिनः
सर्वे सर्वे भद्रापश्यन्तु मा कश्चित् दुःखभाग् भवेत्.
ॐ शान्ति शान्ति शान्ति.